एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। राष्ट्रिय स्वतन्त्र दलस्य संसदीय दलस्य नेतुः प्रचयनस्य विषये विमृष्टुम् दलस्य केन्द्रीय समितेः उपवेशः श्वः बृहस्पतिवासरे अवस्था। दलसभापतिः रवि लामिछानेभिदस्य अध्यक्षतायाम् वनस्थलीवर्तिनी दलस्य केन्द्रीय कार्यालये दिवा चतुर्वादने उपवेशः आयोक्ष्यते इति प्रवक्ता मनीष झा असूचयत्। उपवेशे अनिवार्यतया उपस्थित्यर्थं सर्वे केन्द्रीय सदस्याः निर्दिष्टाः सन्ति। उपवेशे विविधेषु विषयेषु विमृक्ष्यते इति च प्रवक्ता झा असूचयत्। नेपाली कांग्रेस दलेन दलस्य पञ्चदशतमस्य महाधिवेशनस्य कृते कार्यतालिका प्रकाशिता अस्ति। ह्य उपविष्टेन दलस्य केन्द्रीय समितेः उपवेशेन निर्मितस्य प्रस्तावस्य अनुसारेण आगामिनः भाद्रमासस्य चतुर्विंशात् दिवसात् षड्विंशम् दिवसम् यावत् काष्ठमण्डपे महाधिवेशनम् आयोक्ष्यते इति ज्ञापितम् वर्तते। श्रावण मासस्य द्वादशे दिवसीय ग्रामपालिकायाः नगरपालिकायाः सधिवेशनम् सम्पादयिष्यते इति कांग्रेस दलेन ज्ञापितमस्ति। श्रावण मासस्य त्रयोविंशे दिवसीय प्रदेशसभायाः क्षेत्रीयाधिवेशनम् श्रावण मासस्य त्रिंशे दिवसीय च प्रतिनिधिसभा क्षेत्राणाम् अधिवेशनम् आयोक्ष्यते। नेपाली कांग्रेस दलेन जनपदाधिवेशनम् भाद्रमासस्य षष्ठ सप्तमयोः दिवसयोः निर्धारितमस्ति चेत् प्रदेशानाम् अधिवेशनम् भाद्रमासस्य पञ्चदश षोडश दिवसयोः आयोक्ष्यते। अत्रैव नेपाली कांग्रेस दलस्य सभापतिः गगन कुमार थापा निगदति देशे सुशासनस्य स्थापनायै शासकीय सुधाराय च नवीनेन सर्वकारेण सह सहकार्याय दलं तत्परं वर्तते। दलस्य केन्द्रीय कार्यालये आयोजितं केन्द्रीय समितेः उपवेशं ह्य सम्बोधयन् सभापतिः थापा भ्रष्टाचारस्य नियन्त्रणाय सुशासनाय च उच्चस्तरीय रूपेण अनुसन्धातुं सर्वकार समक्षं प्रस्ताव नेष्यते इति असूचयत्। सभापतिः थापा दलेन दायित्ववाहितया प्रतिपक्षस्य भूमिका निर्वक्ष्यते इति च प्रावोचत्। गृह मन्त्रालयेन सम्पद शुद्धिकरणे वित्तीय निवेशस्य न्यूनीकरणाय आवश्यक सहयोगाय आग्रहो विहितोऽस्ति। मन्त्रालयेन एकां विज्ञप्तिं प्रकाश्य संयुक्त राष्ट्रसंघ सुरक्षा परिषदि सूचीकृतेन जनेन समूहेन संघटनेन वा सम्बद्धेन प्रस्तावेन सूचीकरणाय मानदण्डे समावेष्टुं शक्यानां सूचनानां समुचितानाम् आधाराणां च सन्दर्भे गोप्यां सूचनां प्रापयितुम् अनुरुद्धमस्ति। एतद्विक्रम वर्षीयायाः नेपाल नागरिकता चतुर्थ संशोधन नियमावल्याः क्रियान्वयनानन्तरं मातुर्नाम्ना द्वाभ्यां सहस्राभ्यां नवभिशतै अष्टचत्वारिंशता च जनैः नागरिकता प्रमाणपत्रं गृहीतमस्ति। नवीनायाः नियमावल्याः क्रियान्वयनानन्तरम् अधुनावधि नवीनायाः व्यवस्थायाः अनुसारेण एतै जनै मातुर्नाम्ना नागरिकता प्राप्ता अस्ति इति गृहमन्त्रालयेन ज्ञापितम् वर्तते। चतुर्थवारं संशोधिता नेपाल नागरिकता नियमावली राजपत्रे प्रकाशिता आसीत्। गत पौष मासस्य एकादशे दिवसे उपविष्टेन मन्त्री परिषद उपवेशेन नेपाल नागरिकता चतुर्थ संशोधन नियमावलीं स्वीकर्तुं निर्णीतम् आसीत्। उपराष्ट्रपतिना रामसाहेब प्रसाद यादवेन सह कोशी प्रदेशस्य प्रमुखेन परशुराम खापुङ इत्यनेन बागमती प्रदेशस्य प्रमुखेण दीपक प्रसाद देवकोटाभिदेन सुदूरपश्चिम प्रदेशस्य प्रमुखेण नजीर मिया इत्यनेन च शिष्टाचार मेलवार्ता विहिता अस्ति। लयनचौरवर्तिनी उपराष्ट्रपतेः कार्यालये ह्य सम्भूते मेलने देशस्य परिस्थितेः सामयिक विषयेषु च विमृष्टमस्ति इति उपराष्ट्रपतेः सचिवालयेन ज्ञापितम् वर्तते। सर्वोच्च न्यायालयेन राष्ट्रिय स्वतन्त्र दलस्य सभापतेः रवि लामिछानेभिदस्य विरूद्धस्य संघटितापराधस्य सम्पद शुद्धिकरणापराधस्य च न्यायिक प्रकरणस्य संशोधनं कृत्वा प्रत्यावर्तनस्य महान्यायाधिवक्तृ कार्यालयस्य निर्णयस्य विरूद्धे पञ्जीकारितम् आदेशाभियाचन निवेदनमाधृत्य आगामिनि बृहस्पतिवासरे श्रवणं विधास्यते। सर्वोच्च न्यायालये ह्य श्रवणस्य असमाप्तेः पश्चात् अवलोकनस्य अवस्थायां संस्थाप्य बृहस्पतिवासरे पुनः श्रवणं विधास्यते। न्यायाधीशद्वयस्य विनोद शर्मणः अब्दुल अजीज मुसलमान इत्यस्य च संयुक्त न्यायपीठे मंगलवासरात् जायमानस्य श्रवणस्य असमाप्तेः पश्चात् विलोकनस्य अवस्थायां ह्यस्तनदिवसाय न्यायिक निवेदनम् एतत् संस्थापितम् आसीत्। न्यायाधीशद्वयस्य सारंगा सुवेदिनः सुनील कुमार पोखरेलस्य च संयुक्त न्यायपीठेन अशैव चैत्र मासस्य पञ्चमे दिवसे लामिछानेभिदस्य सम्पद शुद्धिकरणस्य संघटितापराधस्य च न्यायिक प्रकरणस्य प्रत्यावर्तनेन सह सम्बद्धम् महान्यायाधिवक्तृ कार्यालयस्य संशोधन निर्णयम् प्रस्तुतुम् आदिष्टम् आसीत्। कपिलवस्तु जनपदस्य महाराजगंज नगरपालिकायाः द्वितीय वडा क्षेत्रस्य बर्गदा स्थाने सम्भूतायाः घटनायाः अनन्तरं क्रियान्विता निषेधाज्ञा ह्यस्तन दिवसात् अपसारिता अस्ति। कपिलवस्तु जनपद प्रशासन कार्यालयेन सूचना प्रकाश्य शान्ति सुरक्षायाः अवस्था सामान्य अस्तीति हेतु नागरिकाणां जनजीवनं सहजं विधातुम् आवश्यकम् अस्तीत्यतः निषेधाज्ञा अपसारिता अस्तीति ज्ञापितं वर्तते। बर्दिया जनपदस्य गुलरिया नगरपालिकायाः एकादश वडा क्षेत्रस्य गणेशपुरस्थाने मादकौषध विरुद्धं जायमानस्य प्रदर्शनस्य उग्रतायां स्थानीयेषु प्रहरीषु च जाते संघर्षे एकादश प्रहरिणः आहताः वर्तन्ते। नेपालगंज गुलरिया मार्गखण्डे आन्दोलनकारिभिः ह्य विहितम् अवरोधम् अपसारयितुं गतेन प्रहरी समूहेन स्थितिं नियन्त्रयितुं दशचक्राणां वातगुलिकानां प्रहारः कृतः आसीत् चेत् चतुर्णां चक्राणाम् अष्टवात प्रहारः कृतः आसीत्। मिथिलाञ्चल क्षेत्रे प्रतिवर्षं चैत्र शुक्ल पक्षस्य चतुर्थीतः सप्तमीं यावत् समाद्रियमाणं चैत्र छठ पर्व अद्य प्रातः उदीयमानाय सूर्याय अर्घ्यं समर्प्य समाप्यते। पर्वणः तृतीय दिने ह्य चैत्र शुक्ल पक्षस्य षष्ठ्यां तिथौ व्रतालुभि आदिनम् उपवासं विधाय सायंकाले अस्तंगम्यमानाय सूर्याय अर्घ्यं समर्पितम्। कार्तिक शुक्ल पक्षस्य चतुर्थीतः सप्तमीं यावदपि छठ पर्व समाद्रियते। कार्तिक शुक्ल पक्षे समाद्रिय माणम् छठ पर्व विशेष रूपेण महता आयोजनेन बहुनाम् जनानाम् सहभागितायाञ्च समाद्रियते। परन्तु चैत्र शुक्ल पक्षे तावत् महत् आयोजनम् न भवति। तथापि अधुना मिथिला क्षेत्रेण सहैव प्रायः अन्यत्र च महिलाभिः सविधि चैत्र छठ पर्वणः समायोजनम् प्रारब्धमस्ति। चैत्र शुक्ल पक्षे च कार्तिक शुक्ल पक्षस्य छठ पर्व इव चतुर्थीत एव नहाय खाय विधिम् सम्पाद्य पर्व प्रारभ्यते। पञ्चम्याम् खरना नामको विधि क्रियते चेत् षष्ठ्याम् सायंकाले अस्तंगम्यमानाय सूर्याय अर्घ्यम् समर्प्यते। सप्तम्याम् प्रातः उदीयमानाय सूर्याय अर्घ्यम् समर्प्य पर्वेदम् समाप्यते। हुम्ला जनपदस्य चंखेली ग्रामपालिकायाः पञ्चम वडा क्षेत्रवर्तिनी मेषगोष्ठी प्रविश्य चित्रव्याघ्रेण पञ्चचत्वारिंशत् मेषाः मारिताः सन्ति। रविवासरस्य रात्रां पूरी गाउँस्थाने गोष्ठी प्रविश्य चित्रव्याघ्रेण पञ्चचत्वारिंशत् मेषाः मारिताः इति चंखेली ग्रामपालिकायाः पञ्चम वडा क्षेत्रस्य स्थानीय जसबहादुर तामाङ असूचयत्।